ओम श्री घेरंड संहितायाम प्रथमोपदेशः अठ घटस्थ योग वर्णन प्रकरणम् एकदा चंडकापालेर गत्वा घेरंड कुट्टिमम् प्रणम्य विनयाद् भक्त्या घेरंडम् परिप्रच्छति। चंडकापालिरुवाच घटस्थ योगं योगेश तत्त्वज्ञानस्य कारणम् इदानीं श्रोतुमेच्छामि योगेश्वर वत्प्रभो। घेरण्डुवाच साधु साधु महाबाहो यन्मां त्वं परिपृच्छसि कथयामि हि ते वत्स सावधानावधारये। नास्ति माया समः पाशो नास्ति योगात् परं बलम् नास्ति ज्ञानात् परो बंधुर् नाङ्कारात् परो रिपुः। अभ्यासात् कादिवर्णानि यथा शास्त्राणि बोधयेत् तथा योगं समासाद्य तत्त्वज्ञानञ्च लभ्यते। सुकृतैर्दुष्कृतैर्कार्यैर्जायते प्राणिनां घटः घटादुत्पद्यते कर्म घटी यन्त्रं यथा भ्रमेत्। ऊर्ध्वार्धो भ्रमते तद्वत् घटी यन्त्रं गवां वशात् तद्वत् कर्णवशा जीवो भ्रमते जन्म मृत्युभिः। आम कुंभम इवाम्बस्थो जीर्यमाणः सदा घटः योगानलेन सन्दैह्य घट शुद्धिं समाचरेत्। अथ सप्त साधन प्रकरणम् शोधनं दृढता चैव स्थैर्यं धैर्यं च लाघवम् प्रत्यक्षं च विनिर्लेप्तं घटस्थं सप्त साधनम्। षट् कर्मणा शोधनं च आसनीयं भवेद् दृढम् मुद्रयाय स्थिरता चैव प्रत्याहारेण धीरता प्राणायामाल्लाघवञ्च ध्यानात् प्रत्यक्षमात्मनि समाधिना च निर्लिप्तं मुक्तिरेव न संशयः। अथ षट्कर्म प्रकरणम् धौतिर्वस्तिस्तथा नेतिर्लौलिकी त्राटकं तथा कपालभातिश्चैतानि षट्कर्माणि समाचरेत्। प्रथमं धौतिकर्म प्रकरणम् अन्तर्धौतिर्दन्तधौतिर्हृद्धौतिर्मूलशोधनम् धौतिं चतुर्विधां कृत्वा घटं कुर्वन्ति निर्मलम्। अथान्तर्धौतिर्कर्म वातसारं वारिसारं वहनिसारं बहिष्कृतम् घटस्य निर्मलार्थाय अन्तर्धौतेश्चतुर्विधा वातसारान्तर्धौतिः काकचञ्चुवदास्येन पिबेद्वायुं शनैः शनैः चालयेत् उदरं पश्चात् वर्तमनारेचयेच्छनैः वातसारं परं गोप्यं देहनिर्मलकारणम् सर्वरोगक्षयकरं देहानलविवर्धकम्। वारिसारान्तर्धौतिः आकण्ठं पूरयेद्वारि वक्त्रेण चापि बेच्छनैः चालयेदुदरेणैव चोदरैरेचयेद् अधः वारिसारं परं गोप्यं देहनिर्मलकारणं साधयेत् प्रयत्नेन देवदेहं प्रपद्यते वारिसारं परां धौतिं साधयेद् यः प्रयत्नतः मलदेहं शोधयित्वा देवदेहं प्रपद्यते वह्निसारान्तर्धौतिः नाभिग्रन्थिं मेरुपृष्ठे शतवारं च कारयेत् अग्निशारं येषां धौतिर्योगिनां योगसिद्धिदा उदरामयजं त्यक्त्वा जठराग्निं विवर्धयेत् एषा धौतिः परा गोप्या देवानामपि दुर्लभा केवलं धौतिमात्रेण देवदेहं भवेत् ध्रुवम् बहिष्क्रान्तान्तर्धौतिः काकी मुद्रां साधयित्वा पूरयेतुदरं महत् धारयेतर्धयामं तु चालयेतधो वर्त्मना एषा धौतिः परा गोप्या न प्रकाश्या कदाचन नाभिमग्नो जले स्थित्वा शक्तिनाडीं विसर्जयेत् कराभ्यां चालये नाडीं यावन्मल्विसर्जनम् तावत् प्रक्षाल्य नाडीं च उदरे वेशयेत् पुनः इदं प्रक्षालनं गोप्यं देवानाम् अपि दुर्लभम् केवलं धौतिमात्रेण देवदेहो भवेत् ध्रुवम् यामार्धं धारणां शक्तिं यावन्नः साधयेन्नरः बहिष्कृतं महाधौतिस्तावच्चैव न जायते अथ दन्तधौते कर्म दन्तमूलं जिह्वामूलं रन्ध्रं च कर्णयुग्मयोः कपालरन्ध्रं पञ्चैते दन्तधौतिं विधीयते दन्तमूलधौतिः खादिरेण रसेनाथ मृत्तिकया च शुद्धया मार्जये दन्तमूलं च यावत् किल्बिषमाहरेत् दन्तमूलं परां धौतिर्योगिनां योगसाधने नित्यं कुर्यात् प्रभाते च दन्तरक्षां च योगवेत् दन्तमूलं धावनादिकार्येषु योगिनां मतम् जिह्वामूल धौतिः अथ तासं प्रवक्ष्यामि जिह्वाशोधन कारणम् जरामरणरोगादीन् नाशयेत् दीर्घलम्बिका तर्जनी मध्यमनामा अङ्गुलित्रययोगतः वेषयेत् गल्मध्ये तु मार्जयेल्लम्बिका जडम् शनैः शनैः मार्जयित्वा कफदोषं निवारयेत् मार्जयेन्नवनीतेन दोहयेच्च पुनः पुनः तदग्रं लौहयन्त्रेण कर्षयित्वा शनैः शनैः नित्यं कुर्यात् प्रयत्नेन रविहृदयके हस्तके एवं कृते च नित्यं सालम्बिका दीर्घतां व्रजेत् कर्णरन्ध्रधौतिः तर्जन्यनामिका योगान् मार्जयेत् कर्णरन्ध्रयोः नित्यमभ्यासयोगेन नादान्तरं प्रकाशयते कपालरन्ध्रधौतिः वृद्धाङ्गुष्ठेन दक्षेण मार्जयेत् भालरन्ध्रकम्। एवमभ्यास योगेन कफदोषं निवारयेत्। नाडी निर्मलतां याति दिव्य दृष्टिः प्रजायते। निद्रान्ते भोजनान्ते च दिवान्ते च दिने दिने। अथ हृद्धौति कर्म। हृद्धौतिं त्रिविधां कुर्यात् दण्डवमन् वाससा। दण्डधौति रम्भादण्डं हरिदण्डं वेत्रदण्डं तथैव च हन्मध्ये चालयित्वा तु पुनः प्रत्याहरेच्छनैः। कफपित्तं तथा क्लेदं रेचयेतूर्ध्ववर्त्मना। दण्डधौतिविधानेन हृद्रोगं नाशयेद्ध्रुवम्। वमनधौतिः भोजनान्ते पिबेद्वारि चाकण्ठपूरितं सुधिः। ऊर्ध्वां दृष्टिं क्षणं कृत्वा तज्जलं वमयेत् पुनः। नित्यमभ्यासयोगेन कफपित्तं निवारयेत्। वासोधौतिः चतुरङ्गुल्विस्तारं सूक्ष्मवस्त्रं सनैर्गृषेत्। पुनः प्रत्यहरेदेतत् प्रोच्यते धौति कर्म तत्। गुल्मज्वरप्लीहाकुष्ठं कफपित्तं विनश्यति। आरोग्यं बलपुष्टिश्च भवेत् तस्य दिने दिने। अथ मूल शोधन कर्म। अपान क्रूरता तावद् यावन् मूलं न शोधयेत्। तस्मात् सर्वप्रयत्नेन मूल शोधनम् आचरेत्। पित्तमूलस्य दण्डेन मध्यमाङ्गुलिनापि वा यत्नेन चालयेत् गुह्यं वारिणा च पुनः पुनः। वारयेत् कोष्टिकाठिन्यम् आजीर्णं निवारयेत्। कारणं कान्तिपोष्ट्योश्च दीपनं वहनिमण्डलम्। द्वितीयं बस्ति कर्म प्रकरणम्। जलबस्तिः शुष्कबस्तिर्बस्तिः स्याद् द्विविधा स्मृता। जलबस्तिं जले कुर्यात् शुष्कबस्तिं सदाचितौ। जलबस्ति कर्म। नाभिमग्न जले पायुं न्यस्तवानुत्कटासनम्। आकुञ्चनं प्रसारञ्च जलबस्तिं समाचरेत्। प्रमेहञ्च उदावर्तं क्रूरवायुं निवारयेत्। भवेत् स्वच्छन्देहश्च कामदेव समो भवेत्। शुष्कबस्ति कर्म। बस्तिं पश्चिमोत्तानेन चालयित्वा शनैरधः। अश्विनी मुद्रया पायुम् आकुञ्चयेत् प्रसारयेत्। एवमभ्यासयोगेन कोष्ठदोषो न विद्यते। विवर्धयेत् जठराग्निम् आमवातं विनाशयेत्। तृतीयं नीतिकर्म प्रकरणम्। वितस्तिमानं सूक्ष्मसूत्रं नासानाले प्रवेशयेत्। मुखाद् निर्गमयेत् पश्चात् प्रोच्यते नीतिकर्मकम्। साधनान्नीतिकार्यस्य खेचरी सिद्धिं माप्नुयात्। कफदोषा विनश्यन्ति दिव्यदृष्टिः प्रजायते। चतुर्थं लौलिकी कर्म प्रकरणम्। अमन्दवेगं तुन्दं च भ्रामयेतुभ पार्श्वयोः सर्वरोगान् निहन्तीह देहानल्विवर्धनम्। पञ्चमं त्राटकर्मप्रकरणम्। निमेषोन्मेषकं त्यक्त्वा सूक्ष्मलक्ष्यं निरीक्षयेत् पतन्ति यावदश्रूणि त्राटकं प्रोच्यते बुधैः। एवमभ्यासयोगेन साम्भवी जायते ध्रुवम्। नेत्ररोगा विनश्यन्ति दिव्यदृष्टिः प्रजायते। षष्ठं कपालभाति कर्म प्रकरणम्। वातक्रमेण व्युतक्रमेण शीतक्रमेण विशेषतः भालभातिं त्रिधा कुर्यात् कफदोषं निवारयेत्। अथ वातक्रम कपालभाति कर्म। ईडया पूरेद्वायुं रेचयेत् पिंगलां पुनः। पिंगलया पूरयित्वा पुनश्चन्द्रेण रेचयेत्। पूरकं रेचकं कृत्वा वेगेन नातु चालयेत्। एवमभ्यासयोगेन कफदोषं निवारयेत्। अथ व्युत्क्रम कपालभाति कर्म। नासाभ्यां जलं माकृस्य पुनर्वक्त्रेण रेचयेत्। पायं पायं व्युत्क्रमेण श्लेष्मदोषं निवारयेत्। अथ शीतक्रम कपालभाति कर्म। शीतकृत्य पीत्वा वक्त्रेण नाशानालैर्विरेचयेत्। एवमभ्यासयोगेन कामदेव समो भवेत्। न जायते वार्धकं च जरा नैव प्रजायते। भवेत् स्वच्छन्द देहश्च कफदोषं निवारये। इति श्री घेरण्ड संहितायां घेरण्ड चंडिका पाली संवादे षट् कर्म साधनं नाम प्रथमोपदेशः।